ओम नमो भगवते वासुदेवाय। अथ द्वाविंशोऽध्यायः। मैत्रेय उवाच, जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमं, तत्रोपजग्मुर्मुनयश्चत्वारः सूर्यवर्चसः, तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा, लोकानपापान् कुर्वत्या सानुगोचष्टलक्षितान्, तद्दर्शनोद्गतान् प्राणान् प्रत्यादित्सूर्यवोत्थितः, स सदस्यानुगो वैन्य इन्द्रियेशो गुणानिव, गौरवाद्यन्त्रितसभ्यः प्रश्रया नतकन्धरः, विधिवत्पूजयाञ्चक्रे
गृहीतार्घ्यार्हणासनान्,
तत्पादसौ च सलिलैर्मार्जितालकबन्धनः, तत्र शीलवतां वृत्तमाचरन्मानयन्निव, हाटकासनासीनान् स्वधिष्ण्येष्विव पावकान्, श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान्। पृथुरुवाच, अहो आचरितं किं मे मङ्गलं मङ्गलायनाः, यस्य वो दर्शनं यासीत् दुर्दर्शानां च योगिभिः, किं तस्य दुर्लभतरमिह लोके परत्र च, यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः, नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान्, यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः, अधुनापि ते धन्या साधवो गृहमेधिनः, यद्गृहायर्ह्यवर्याम्बु तृणभूमीश्वरावराः, व्यालालयद्रुमा वै तेऽप्यरिक्ताखिलसम्पदः, यद्गृहास्तीर्थपादीय पादतीर्थविवर्जिताः, स्वागतं वो द्विजश्रेष्ठा यद्वृतानि मुमुक्षवः, चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च, कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनां, व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः, भवत्सुकुशलप्रश्न आत्मा रामेषु नेष्यते, कुशलाकुशला यत्र न सन्ति मतिवृत्तयः, तदहं कृतविश्रम्भः सुहृतो वस्तपस्विनां, सम्पृच्छे भव एतस्मिन् क्षेम केनाञ्जसा भवेत्, व्यक्तमात्मवतामात्मा भगवानात्मभावनः, स्वानामनुग्रहाये मां सिद्धरूपी चरत्यजः। मैत्रेय उवाच, पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठुमितं मधु, स्मयमानैव प्रीत्या कुमारः प्रत्युवाचः। सनत्कुमार उवाच, साधु पृष्टं महाराज सर्वभूतहितात्मना, भवता विदुषा चापि साधूनां मतिरीदृशी, सङ्गमः खलु साधूनामुभयेषां च सम्मतः, यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोतिशम्, अस्त्येव राजन् भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने, प्रतिर्दुरापा विधुनोति नैष्ठिकी, कामं कषायं मलमन्तरात्मनः, शास्त्रेष्वियानेव सुनिश्चितो नृणां क्षेमस्य सध्यग्विमृशेषु हेतुः, असङ्गात्मव्यतिरिक्त आत्मनि दृढा रतिर्ब्रह्मणि निर्गुणे च या, सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाध्यात्मिकयोगनिष्ठया, योगेश्वरोपासनया च नित्यं पुण्यश्रवः कथया पुण्यया च, अर्थेन्द्रिया रामसगोष्ठ्यतृष्णया तत्सम्मतानामपरिग्रहेण च, विविक्तरुच्या परितोष आत्मन् विना हरेर्गुणपीयूषपानात्, अहिंसया पारमहंस्यचर्यया स्मृत्या मुकुन्दा चरिताग्र्यसीधुना, यमैरकामैर्नियमैश्चाप्यनिन्दया निरीहया द्वन्द्वतितिक्षया च, हरेर्मुहुस्तत्परकर्णपूरगुणाभिधानेन विजृम्भमाणया, भक्त्या यसङ्गः सदसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः, यदा रतिर्ब्रह्मणि नैष्ठिकी पुमानाचार्यवान् ज्ञानविरागरंहसा, दहत्यवीर्यं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्निः, दग्धाशयो मुक्तसमस्ततद्गुणो नैवात्मनो बहिरन्तर्विचष्टे, परात्मनोर्यद्व्यवधानं पुरस्तात् स्वप्ने यथा पुरुषस्तद्विनाशे, आत्मानमिन्द्रियार्थं च परं यदुभयोरपि, सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा, निमित्ते सति सर्वत्र जलादावपि पूरुषः, आत्मनस्य परस्यापि भिदां पश्यति नान्यदा, इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतां मनः, चेतनां हरते बुद्धे स्तम्भस्तोऽयमिव हृदात्, भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंशस्मृतिक्षये, तद्रोधं कवयः प्राहुरात्मापन्नवमात्मनः, नातः परतरो लोके पुंसस्वार्थव्यतिक्रमः, यदध्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात्, अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापन्नवो नृणां, भ्रंशितो ज्ञानविज्ञानाद् येना विशति मुख्यताम्, न कुर्यात् कर्हिचित्सङ्गं तमस्तीव्रं तितीरिषुः। धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते। त्रैवर्ग्योऽर्थो यतो नित्यम् कृतान्तभयसंयुतः। परे वरे च ये भावा गुणव्यतिकरादनु न तेषाम् विद्यते क्षेममीश विध्वंसिताशिषाम्। तत्त्वम् नरेन्द्रजगतामथ तस्थुषाम् च देहेन्द्रियासु धिषणात्मभिरावृतानाम्। यः क्षेत्रवित्तपतया हृदि विश्वगाभिः प्रत्यक्षकास्ति भगवान् स्तमवेहि सोऽस्मि। यस्मिन्निदम् सदसदात्मतया विभाति मायाविवेकविधुतिस्रजिवाहि बुद्धिः। तम् नित्यमुक्तपरिशुद्धविबुद्धतत्त्वम् प्रत्यूढकर्मकलिलप्रकृतिम् प्रपद्ये। यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयम् ग्रथितमुद्ग्रथयन्ति सन्तः। तद्वन्नरिक्तमतयो यतयोऽपि रुद्धस्रोतो गणास्तमरणम् भज वासुदेवम्। कृच्छ्रो महानिह भवार्णवमप्लवेषाम् षड्वर्गनक्रमसुखेन तितीरसन्ति। तत्त्वम् हरेर्भगवतो भजनीयमङ्घ्रिम् कृत्वोडुपम् व्यसनमुत्तरदुस्तरार्णम्। मैत्रेय उवाच, स एवम् ब्रह्मपुत्रेण कुमारेणात्ममेधसा दर्शितात्मगति सम्यक् प्रशस्योवाच तम् नृपः। राजोवाच, कृतो मेऽनुग्रह पूर्वम् हरिणार्तानुकम्पिना तमापादयितुम् ब्रह्मन् भगवन् यूयमागताः। निष्पादितस्य कार्त्स्न्येन भगवद्भिर्घृणालुभिः साधूच्छिष्टम् हि मे सर्वमात्मना सह किम् ददे। प्राणादारा सुता ब्रह्मन् गृहाश्च स परिच्छदाः। राज्यम् बलम् महीकोश इति सर्वम् निवेदितम्। सैनापत्यम् च राज्यम् च दण्डनेतृत्वमेव च सर्वलोकाधिपत्यम् च वेदशास्त्रविदर्हति। स्वमेव ब्राह्मणो भुङ्क्ते स्वम् वस्ते स्वम् ददाति च, तस्यैवानुग्रहेणान्नम् भुञ्जते क्षत्रियादयः। यैरीदृशी भगवतो गतिरात्मवादे एकान्ततो निगमिभिः प्रतिपादितानः। तुष्यन्त्वदभ्रकरुणा स्वकृतेन नित्यम् को नाम तत्प्रतिकरोति विनोदपात्रम्। मैत्रेय उवाच, तात्मयोगपतय आदिराजेन पूजिताः शीलम् तदीयम् संसन्तः खे भुवन्मिषताम् दृणाम्। वैन्यस्य धुर्यो महताम् संस्थित्याध्यात्मशिक्षया आप्तकाममिवात्मानम् मेनात्मन्यवस्थितः। कर्माणि च यथा कालम् यथा देशम् यथा बलम् यथोचितम् यथा वित्तमकरोद् ब्रह्म सात्कृतम्। फलम् ब्रह्मणि विन्यस्य निर्विषङ्गः समाहितः। कर्माध्यक्षम् च मन्वान् आत्मानम् प्रकृतेः परम्। गृहेषु वर्तमानोऽपि ससाम्राज्यश्रियान्वितः नासज्जतेन्द्रियार्थेषु निरहम् मतिरर्कवत्। एवमध्यात्मयोगेन कर्माण्यनुसमाचरन् पुत्रानुत्पादयामास पञ्चार्चिष्यात्मसम्मतान्। विजिताश्वम् धूम्रकेशम् हर्यश्वम् द्रविणम् वृकम् सर्वेषाम् लोकपालानाम् दधारैकः पृथुर्गुणान्। गोपीधाय जगत्सृष्टेः काले स्वे स्वे च्युतात्मकः। मनोवाग्वृत्तिभिः सौम्यैर्गुणैः संरञ्जयन् प्रजाः। राजेत्यधान्नामधेयम् सोमराज इवापरः। सूर्यवद्विसृजन् गृह्णन् प्रतपंश्च भुवो वसु। दुर्धर्षस्तेजसेवाग्निर्महेन्द्र इव दुर्जयः। तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम्। वर्षति स्म यथा कामम् पर्जन्यैव तर्पयन् समुद्र इव दुर्बोधः सत्त्वेनाचलराडिव। धर्मराडिव शिक्षायामाश्चर्ये हिमवानिव। कुबेर इव कोषाढ्यो गुप्तार्थो वरुणो यथा। मातरिष्वेव सर्वात्मा बलेन सह सौजसा। अविषयतया देवो भगवान् भूतराडिव। कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव। वात्सल्ये मनुवन्द्रीणाम् प्रभुत्वे भगवानजः। बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयम् हरिः। भक्त्या गोगुरु विप्रेषु विश्वक्सेनानुवर्तिषु। हृया प्रशयशीलाभ्यामात्मतुल्यः परोद्यमे। कीर्त्योर्ध्वगीतया पुंभिस्त्रैलोक्ये तत्र तत्रः। प्रविष्टः कर्णरन्ध्रेषु स्त्रीणाम् रामस्सतामिव। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे पृथुचरिते द्वाविंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।